स्वपादमूलं भजत प्रियस्य त्यक्तान्यभावस्य हरि परेशः विकर्मयच्चोत्पतितं कथञ्चित् धुनोति सर्वं हृदि सन्निविष्टः स्वपादमूलं भजत प्रियस्य त्यक्तान्यभावस्य हरि परेशः विकर्मयच्चोत्पतितं कथञ्चित् धुनोति सर्वं हृदि सन्निविष्टः